अथ एकविंशः पाठः सप्तमः खण्डः अन्येद्युः प्रभावती गमनाय शुकं पृच्छति स्म सोऽप्याह व्रजदेवी विचारं चेत् कर्तुं जानासि भामिनि समं जारेण सम्प्राप्ता सुन्दरीव यथा गृहे कथमेतत् सो ब्रवीत् अस्ति सीहूली नाम ग्रामः तत्र महाधनो वणिक् तद्भार्या सुन्दरी ताञ्च मोहनो नाम उपपतेर्नित्यन् गृहमागत्य भुङ्क्ते अन्यदा यावत् सा तथा तिष्ठति तावत् तत्पतिः समागतः सा कथं भवतु उत्तरम् सा पतिमागच्छन्तं दृष्ट्वा जारं विवस्त्रं शिक्के कृत्वा मुक्तकेशा गृहान्निर्गत्य दूरस्था पतिमाः अस्मद्गृहमध्ये नग्नभूतं शिक्यारूढं विद्यते मान्त्रिकानाकारयितुं गच्छेत्युक्ते स मूर्खस्तदर्थं जगाम तदा च तदन्तरे तया उल्मुकं हस्ते कृत्वा उपपतिर्निष्कासितः पत्यौ च आगते सा जगाद यदुल्मुकेनापि भूतं नष्टम् इति कथां श्रुत्वा प्रभावती सुप्ता